सदा भक्तो वंदे संस्कृत मातरम् संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये वंदे संस्कृत मातरम् वंदे संस्कृत मातरम्। नमस्कारः, सुसायं। भोजचम्पूरामायणे वयम् अशोकवनिका भञ्जनप्रसङ्गे स्मः। हनुमान् सीतायाः अनुमतिं प्राप्य लङ्कातः प्रस्थातुं यदा उद्युक्तः तदा तेन इदं चिन्तितम्। किं चिन्तितम्? यत् मम अत्र आगमनं, मम इत्युक्ते हनुमतः न रामदूतस्य, रामदूतस्य अत्र आगमनं लङ्काधीशः रावणः जानीयात्। यतः दूतस्य कार्यं तु मुख्यं कार्यं, प्रधानम् इदं कार्यम् आसीत् यत् सीतया सह मेलनं, तस्यै अभिज्ञानदानं, तस्याः सकाशात् अभिज्ञानप्राप्तिः, ततः पुनः लङ्कायाः लङ्कातः निर्गत्य रामसकाशे सूचना देया इति एव तस्य मुख्यप्रधानं कार्यं। किन्तु सः चिन्तयति यत् मम अत्र आगमनानन्तरं मुख्यकार्यं सिद्धं, प्रधानकार्यं सिद्धम्, कृतकृत्यः अस्मि। इदानीम् अवान्तरकार्याणि अपि यदि सिद्ध्यन्ति तर्हि तत्र का हानिः? किन्तु मुख्यकार्यस्य विरोधं विना इति वयं रामायण वाल्मीकिरामायणप्रसङ्गे एतद् किञ्चित् विस्तरेण यद् उक्तमासीत् तद् दृष्टवन्तः। तथैव सः अशोकवनिकायां यत्र सीता आसीना आसीत् तत् स्थानं विहाय अन्यत् सर्वमपि स्थलं सः भञ्जितवान्। चैत्यतोरणं, तोरणम् इत्युक्ते सामान्यतया वयं गृहद्वारे यद् अलङ्करणवस्तु, मङ्गलवस्तु स्थापयामः तत् तोरणम् इति वदामः। अत्र तोरणं नाम किम्? अत्र तोरणं मुख्य बहिर्द्वारम् इति अर्थः। प्रासादतोरणं, चैत्यतोरणम् इति उच्यते। तत्र तोरणस्य भञ्जनम् अकरोत्। तेन किम् अभवत्? तत्र विद्यमानाः राक्षसाः, राक्षस्यः याः सीतां परितः आसन्, ताः गत्वा रावणम् एतां सूचनां यच्छन्ति। कश्चित् वानरवेषधारी अत्र आगत्य ध्वंसनं कृतवान् अस्ति इति, कुर्वन् अस्ति। तदा रावणः एकैकं राक्षसं, सेनाध्यक्षं, बहून् अधिकसङ्ख्याकान् राक्षससैनिकान् च परम्परया क्रमेण प्रेषयति तेन सह योद्धुं। तत् तं प्रसङ्गं वयमिदानीं पश्यन्तः स्मः। पुनस्मारणं कृत्वा अग्रे गच्छामः। तदनु सरभसं वेगेन आरक्षिकरक्षोगणनिवेदितप्रमदावन कदनकुपितदशवदन प्रेषितान् पितृपतिकिङ्करभयङ्करान् किङ्करान् प्रहस्तपुत्रेण जम्बुमालिना सह निहत्य चैत्यतोरणमुपगतवती हनुमती। अनन्तरम् अतिवेगेन, यावता वेगेन राक्षसाः तत्र आगत्य पतन्ति हनुमती, तावता एव वेगेन, ततोपि वेगतरः आसीत् हनुमान्। हनुमान् किम् अकरोत्? आरक्षिकरक्षोगणनिवेदितप्रमदावनकदनं, कदनं नाम नाशनम्। आरक्षिकैः याः सीतां परितः आसन्, ताः आरक्षिकाः गत्वा राजानं रावणं वदन्ति किल, ताभिः आरक्षिकैः आरक्षिकाभिः निवेदिता हा अभवत् रावणः. किं निवेदितम्? अशोकवनस्य कदनं भञ्जनं नाशनम् इति. तेन कुपितः दशवदनः रावणः किं कृतवान्? अनेकान् सैनिकान् प्रेषितवान्. प्रेषितान् तादृशसैनिकान् कीदृशाः ते? पितृपतिकिङ्करभयङ्करान् यमसदृशान् किङ्करान् सेवकान् सैनिकान् प्रेषितवान्. पुनः प्रहस्तपुत्रः जम्बुमालिनं माली आसीत् तमपि प्रेषितवान्. किन्तु आञ्जनेयः किम् अकरोत्? प्रहस्तपुत्रेण जम्बुमालिना सह इतर सर्वान् अपि तत्रत्य सैनिकान् नाशितवान् इति एतस्य अर्थः. अग्रिमगद्यभागस्य कः अर्थः? पुनरपि सः अन्यं कमपि प्रेषयति. जम्बुमाली हतः, अतः इदानीं सः स्वस्य पञ्चसचिवान् प्रेषितवान्. पञ्चसचिवाः के इति वयं दृष्टवन्तः. पुनरपि निशमित अमितनिशिचरगणमारण. निशमित नाम श्रुतं. किं श्रुतं रावणेन? निशिचरगणमारणं. निशि राक्षसानां गणानां मारणम् अभवत् यत् तद् श्रुतवान्. तादृशः रावणः पञ्चसचिवान् प्रेषितवान्. ते कीदृशाः? पूर्वतनकिङ्कराणां विषये उक्तं यमदूततुल्याः इति. अत्र सिंहसदृशाः ते शूराः, पञ्चाननपराक्रमान्, सिंहतुल्याः तुल्यान् तान् प्रहसनप्रमुखान्, प्रहसनः इतरसचिवाः च तान् प्रेषितवान्. किम् इति उक्त्वा प्रेषितवान्? वलीमुखं. वलीमुखः नाम वानरः. वलीमुखं वानरं जीवग्राहं गृह्णीत्वं, जीवन्तं तं गृहीत्वा अत्र आनयन्तु इति आदिशत्. अग्रे तत्र तानपि तान् एतान् पञ्चसचिवान् तानपि तोरणपरिघेण, तोरणद्वारे यद् अर्गलमस्ति तेन अर्गलेन पञ्च एतान् सचिवान् पञ्चत्वं नीतवान् हनुमान्. पञ्चत्वं नीतवान् तान् हतवान्. पुनः मुहुर्मुहुः पुनः पुनः पौनःपुन्येन अहं दाशरथीदूतः इति आत्मानम् उद्घोषयन् आसीत् सः. तादृशं हनुमन्तं नियन्तुं, तं निग्रहीतुं, तस्य निग्रहणं कर्तुं, तं बन्धुं निखिलराक्षसां नियन्ता, सर्वराक्षसानां नियामकः, राजा, अध्यक्षम् अक्षकुमारम् अध्यक्षपत्. सैन्याध्यक्षः आसीत् अक्षः. तम् अक्षम् अध्यक्षपत् निन्दितवान्. किम् एतद् कार्यमपि भवन्तः कर्तुं न शक्नुवन्ति इति, भवतां सामर्थ्ये मम सन्देहः इत्यादिकं तं वचनैः तुदति, येन सः उत्साहितः भूत्वा अथवा उत्साहभरितः भूत्वा स्वस्य पराक्रमं दर्शयितुम् उद्युक्तः भूत्वा सः रणरङ्गं प्रति गच्छेत् इति कृत्वा तं सः निन्दितवान्, अधिक्षिप्तवान्. तत्रैव अन्तिमं पदमस्ति, क्रियापदम् अध्यक्षिपत्. अधिक्षिपति स्म इति अर्थः. क्षिप् धातुः सामान्य अर्थः कः? क्षिपति, कन्दुकं क्षिपति, फलं क्षिपति इति. किन्तु उपसर्गपूर्वकक्षिप् धातोः भिन्न अर्थाः सन्ति. तादृशानि पदानि पश्यामः. अधिक्षिपति इत्युक्ते निन्दनं करोति, निन्दति, भर्त्सयति, अपमानं करोति इति अर्थः. पुनः नि उपसर्गपूर्वकक्षिप् धातुः. निक्षिपति इत्युक्ते कः अर्थः? अधः क्षिपति. कन्दुकम् अधः क्षिपति चेत् निक्षिपति इति वक्तुं शक्नुमः, अथवा धनस्य निक्षेपणम् इन्वेस्ट् करोति, डेपोजिट् करोति किल, धनस्य निक्षेपः इति वदामः, डेपोजिट् इति अर्थः। इन्वेस्ट् इत्युक्ते निवेशः इति भवति, अत्र डेपोजिट् इत्युक्ते निक्षेपः इति अर्थः। पुनः प्रक्षिपति, प्रक्षिपति प्रकर्षेण क्षिपति, यदा वैज्ञानिकाः उपग्रहान् प्रेषयन्ति तर्हि वयं वदामः प्रक्षेप उपग्रहः, उपग्रहस्य प्रक्षेपणं कृतम् इति, तस्मिन् अर्थे एतस्य प्रयोगः। पुनः विक्षिपति, विक्षेपः स्कैटर इति अर्थे अपि भवति, यथा अग्नि क्षम्यतां विद्युत्, विद्युत् किरणस्य विक्षेपः कृतः चेत् भिन्नवर्णाः दृश्यन्ते इति वदन्ति किल, वैट् लैट् तादृश, विक्षिपति। आक्षिपति इति अर्थे इत्यस्य अर्थः भवति दोषं वदति, कम्प्लेण्ट् इति अर्थे आक्षेपः इति भवति। एवं क्षिप् धातोः उपसर्गपूर्वकक्षिप् धातोः भिन्न अर्थाः। एवम् अग्रिमश्लोकः अस्ति भगिनि, अत्र श्लोकः दृश्यन्ते वा सर्वैः, टेक्स्ट् दृश्यते वा? भवतां सकाशे टेक्स्ट् अस्ति वा सर्वेषाम्? अस्तु, अग्रिमश्लोकः, वक्षःसङ्घट्टचूर्णीकृतकनकमहाभित्तिचैत्योत्थधूल्या नक्षत्राणाम् अकाले सरणिम् अरुणयन् वीरलक्ष्म्या समेतः रक्षःशूराख्यशारां क्षितितलफलके क्षेपणीयाम् हनुमान् अक्षक्रीडां विधातुं दशमुखनगरी चत्वरे तत्वरे असौ। तथा पूर्वमुक्तम् अतिवेगेन सः युद्धं कृतवान्, तथैव अत्र तत्त्वरितवान्, त्वरया करणीयम् आसीत्, कारणम् अधिकसङ्ख्याकाः राक्षसाः आगच्छन्ति, तर्हि वेगेन युद्धं करोति चेदेव तस्य अग्रिमकार्यं किमस्ति, साक्षात् रावणस्य साक्षात्कारः इति। अतः त्वरया सः त्वरितवान् इति पदमस्ति, तत्त्वरे। किं कृतवान्? तत्र आगतस्य अक्षस्य अपि वधं कृतवान्, संहारं कृतवान्, अन्य राक्षसानामपि संहारं कृतवान्। तान् उपरि चैत्यद्वारे उपरि आसीत्, ते राक्षसाः इतस्ततः डयमानाः अपि युद्धं कुर्वन्ति, ते मायायुद्धं सर्वं जानन्ति, अतः तोरणस्य उपरि अर्गलं हस्ते गृहीत्वा उपविश्य सः सर्वान् तत्र मारितवान्। तदा किम् अभवत्? यदा इतस्ततः प्लवमानः यदा युद्धं कृतवान्, तस्य वक्षसः सङ्घट्टनेन प्रासादद्वाभित्तीनां द्वारस्य उपरि विद्यमान, चैत्यद्वारस्य उपरि विद्यमान सुवर्णभित्तयः याः आसन् तासां चूर्णनम् अभवत्, चूर्णीकृताः भित्तयः। ततः रजः आकाशे दयते स्म। सुवर्णरजः कथं भवति? पीतसुवर्णवर्णे भवति। सः च वर्णः आकाशम् अकाले रक्तरञ्जितं करोति इति वदति। अकाले इत्युक्ते सन्ध्यासमयः न, प्रातः सन्ध्या एव, उदये सविता रक्तः रक्तश्चास्तमने तथा इति पश्यामः। तर्हि एतद् मध्याह्नकालः स्यात्, तथापि प्रातः अथवा सायंतनकालः इव तद् आकाशः रक्तरञ्जितः दृष्टः। पुनः अत्र कवेः कल्पनया एतादृश हनुमता क्रियमाणं युद्धं सः द्यूतक्रीडया सह तस्य उपमां करोति। द्यूतक्रीडायां कश्चन क्रीडकः गुटिक एतद् द्यूत अधः अक्षक्रीडायाः फलकं भवति। अत्र किं फलकम् इत्युक्ते भूमिः एव, अशोकवनिकायाः भूमिः एव फलकम्। तर्हि अक्षगुटिका भवति किल डैस्, तद् किम् इत्युक्ते ताड्यमानाः म्रियमाणाः राक्षसाः एव अक्षगुटिकाः। हनुमान् एव तद् क्रीडति। तदानीं भूतलमेव अक्षफलकम्, अधःपातनीयाः राक्षसाः एव अक्षगुटिकाः। तादृश अक्षक्रीडां क्रीडामिव काञ्चित् क्रीडां क्रीडन् आञ्जनेयः सर्वान् अपि मारितवान् इति भावः। अत्र एकम् अस्माभिः द्रष्टव्यं, सुवर्णरजः इति किमर्थं कविना तादृशम् उक्तम् इत्युक्ते, सुवर्णमयी लङ्का इति वयं शृणुमः। यद्यपि लङ्कायां प्रभूतम् ऐश्वर्यम् आसीत्, सुवर्णमयी लङ्का इति उच्यते, किन्तु इदानीं वीरलक्ष्मी कुत्र अस्ति? आञ्जनेयस्य आञ्जनेयेन सह अस्ति। अतः वीरलक्ष्म्या समेतस्य हनुमतः द्वारा प्रासादस्य स्वर्णमहाभूतिचैत्यस्य चूर्णनं किं सूचयति? धनबलम् अस्ति मम इति उत्कटः मदोन्मत्तः आसीत् रावणः। तादृशस्य रावणस्य धनमदः अस्ति किल, तस्य एव चूर्णनम् इति, सुवर्णभित्तेः चूर्णनम् इति वयं एकमर्थं वयम् एतादृशं ग्रहीतुं शक्नुमः। इतः इदानीम् अद्यतनं विषयं प्रति गच्छामः। गद्यभागः अस्ति, अहं पठामि, भवन्तः अपि पठन्तु। तत्क्षणं क्षणदाचराणामिति गद्यभागः अस्ति, तत् पश्यामः। तत्क्षणं क्षणदाचराणां विशताम् एव, निष्पादितरङ्गनिष्पेषकृत्यः चैत्यप्रासादम् उत्पाटितं कुम्भजात जातवेदसा दग्ध्वा उपाश्रिततोरणः समीरणसुतः बभूव, एनमपि वृत्तान्तं श्रुत्वा कुपितस्य निशाचरपतेः एव निपेतुः पुत्रे सुत्रामजिति समितिहेतोः श्रुत्र सामान्य अर्थः अस्ति। यदा प्रतिवारं यदा प्रेषयति रावणः कञ्चन सेनाध्यक्षं वा कांश्चन सैनिकान् वा, सर्वे अपि हताः मारिताः भीत्या प्रत्यागताः इति श्रुत्वा अग्रे कः प्रेषणीयः इति रावणस्य चिन्ता भवति, चिन्तनमपि भवति किल, कः प्रेष्यते चेत् अस्माकं जयः भवेत् इति तस्य चिन्तनम्। अतः सः एकैकं विचिन्त्य प्रेषितवान् एषः समर्थः एषः कार्यं साधयति इति. अस्मिन् अवसरे यदा पुनः श्रुतवान् यत् अक्षः अपि मारितः इति, तदा सहसा सः इन्द्रजितं चिन्तितवान्. इन्द्रजित् तत्र आसीत् तस्य पुत्रः. तस्मिन् इन्द्रजिति तस्य दृष्टिः पतिता. अस्तु, अस्मिन् इदानीम् एषः प्रेषणीयः इति तस्य चिन्तनम्. सः एव भावः अत्र. पदच्छेदं पश्यामः. पदच्छेदं प्रतिपदार्थम् अपि. तत्क्षणं तस्मिन् क्षणे क्षणदाचराणां विषताम् एव. विषति इत्युक्ते नेत्रे नेत्रयोः निमीलनम् उन्मीलनं च. एवं नेत्रयोः निमीलनं मिषति इति अर्थः. यदा नेत्रयोः निमीलनम् उन्मीलनं कुर्वन्ति तावता एव, इत्युक्ते क्षणाभ्यन्तरे निष्पादितरङ्गनिष्पेषकृत्यः. कृत्यम् इत्युक्ते कार्यम्, किं सम्पादितम् अनुमता. रङ्गनिष्पेष रणभूमौ अक्षसंहारं येन कृतः तादृशः हनुमान्. अक्षसंहाररूपकृत्यम्, अक्षसंहाररूपकार्यम्. पूर्वं दृष्टवन्तः किल, अक्षगुटिकाः इव तान् क्षिप्त्वा मारितवान् इति. तथा निष्पादित रणरङ्गनिष्पेषकृत्यः रणभूमौ तेषां निष्पेषणं, तेषां नाशनं, तेषां विध्वंसनं तादृशं कृत्यं येन साधितः सः निष्पादितरङ्गनिष्पेषकृत्यः आञ्जनेयः. सः किम् अकरोत्? चैत्यप्रासादं दग्ध्वा. चैत्यप्रासादं बहिर्द्वारस्य प्रासादः आसीत्, तद् केन दग्धवान्? उत्पाटितस्तम्भजातजातवेदसा. तदर्थम् अग्निं कुतः प्राप्तवान् दग्धुम् इति चेत्, यदा युद्धसमये स्तम्भः उत्पाटितः निर्मूलितः, तदा निर्मूलितस्तम्भतः अग्निः सम्भूत. उत्पाटितस्तम्भेन जातः. कः जातः? अग्निः. जातवेदाः इत्युक्ते अग्निः. तेन जातवेदसा, तेन अग्निना दग्ध्वा, चैत्यप्रासादं दग्ध्वा, भूयः अपि पुनः अपि उपाश्रिततोरणः समीरणसुतः बभूव. तोरणम् अन्यम् एकं बहिर्भित्तिद्वारम् आश्रितवान् इति अर्थः. एकं दग्ध्वा, एकं पतितम् अन्यस्मिन् चैत्यप्रासादद्वारे उपविष्टवान्. उपाश्रिततोरणः, उपाश्रितं तोरणं येन सः. उपाश्रिततोरणः, उपाश्रिततोरणः समीरणसुतः पवनपुत्रः बभूव अभवत् सः. सः कीदृशः अभवत् इत्युक्ते उपाश्रिततोरणः, अन्यस्मिन् चैत्यतोरणवृत्तौ उपविष्टवान्. एनम् अपि वृत्तान्तं श्रुत्वा, एवं पुनः अपि एतद् श्रुतवान् किल, कः श्रुतवान्? रावणः. एनम् अपि वृत्तान्तम्, एषः वृत्तान्तः. कः वृत्तान्तः? जम्बुमाली हतः, पञ्च सचिवाः हताः, अक्षः हतः इति कथां श्रुत्वा, वृत्तान्तं श्रुत्वा कुपितः निशाचरपतिः, अत्यन्तं कुपितः सः राक्षसेन्द्रः. तस्य कुपितस्य निशाचरपतेः युगपत् एव निपेतुः. निपेतुः पतन्ति स्म. कानि पतन्ति? अस्माकं सामान्यजनानां चेत् नेत्रे पतिते इति वदामः, द्विवचनप्रयोगं कुर्मः. रावणस्य तु दशमुखः रावणः किल, अतः विंशतिनेत्राणि, अतः एव निपेतुः इति बहुवचनप्रयोगः. युगपत् एव तस्य नेत्राणि पतितानि. कस्मिन् पतितानि? सुत्रामजिति पतितानि. सः कः? तस्य एव पुत्रः. सुत्रामा इत्युक्ते इन्द्रः सुत्रामानं जितवान्। सुत्रामजिति, सुत्रामजित् इति एक प्रथमा एकवचनं, अत्र सप्तमी सुत्रामजिति इन्द्रजिति मेघनादे पतिताः, पतितानि तस्य नेत्राणि, विंशति दृष्टयः पति पतिताः। किमर्थं तादृशं सः दृष्टवान्? सुपुत्रम् उद्देशेन, सोद्देशं दृष्टवान् किल, अस्मिन् पर्याये भवता गन्तव्यम् इति उद्देशेन तं दृष्टवान् इति भावः तत्र। किमर्थं तथा दृष्टवान् इत्युक्ते समितिहेतोः, युद्धार्थं। समितिः नाम युद्धं, युद्धस्य कृते समितिहेतोः तस्य विंशति दृष्टयः पतिताः। कस्मिन् पतिताः? सुत्रामजिति नाम इन्द्रजिति। अत्र भावार्थः अस्ति अशोकवाटिकायां ये राक्षसाः आसन् तान् अनादृत्य, यदा ते पश्यन्तः सन्ति तदा एव तान् अनादृत्य रावणेन प्रेषितम् अक्षकुमारं हतवान् हनुमान्। एकः स्तम्भः भग्नः अभवत्, तत्र अग्निः उत्पन्ना, तेन अग्निना एव सः चैत्यप्रासादं दग्धवान्। इदं प्रवृत्तं सर्वं श्रुत्वा कुपितः रावणः दाशरथिदूतेन सह युद्धाय, तस्य निग्रहाय च कः वा योग्यः इति चिन्तितवान्। तदा तस्य दृष्टिः स्वपुत्रे इन्द्रजिति पतिता इति भावः। अत्र पदानां वैशिष्ट्यं पश्यामः। निष्पादितरङ्गनिष्पेषकृत्यः, निष्पेषः इति कृत्यम्, निष्पेषः मारणं ध्वंसनम् इति, निष्पेषकृत्यं निष्पादितं रङ्गे निष्पेषकृत्यं येन सह। रङ्गे इत्युक्ते रणरङ्गे, युद्धभूमौ किं निष्पादितं, किं साधितं, किं सम्पादितं? निष्पेषकृत्यं सम्पादितम्। जातवेदसा इति पदमस्ति, उत्पाटितस्तम्भजात जातवेदसा। जातं वेत्ति वेदयते वा इति जातवेदाः, जातवेदस्य शब्दः सकारान्त पुल्लिङ्गशब्दः, जातवेदाः जातवेदसौ जातवेदसः। उत्पाटितस्तम्भात् जातः जातवेदाः, उत्पाटितस्तम्भजात जातवेदाः तेन, अत्र तृतीया विभक्तिप्रयोगः, उत्पाटितस्तम्भजात जातवेदसा इति प्रयोगः। समीरणसुतः इति अस्ति, सम्यक् ईरयत्,